पञ्चमोऽध्यायः विनियोगः। ॐ अस्य श्री उत्तरचरित्रस्य रुद्रऋषिः महासरस्वतीदेवता अनुष्टुप्छन्दः भीमाशक्तिः भ्रमरीबीजं सूर्यस्तत्त्वं सामवेदः स्वरूपं महासरस्वती प्रीत्यर्थे उत्तरचरित्रपाठे विनियोगः। ध्यानम्। ॐ घण्टाशूलहलाणि शङ्खमुसले चक्रं धनुषायकं हस्ताब्जर्दधतिं घनन्तविलसक्षीतं सुतुल्यप्रभां गौरी देहि समुद्भवं त्रिजगतामाधारभूतां महापूर्वामत्र सरस्वतीमनुभजे शुम्भादिदैत्यार्दणीं। ॐ क्लीं ऋषिरुवाच पुरा शुम्भुनिशुम्भाभ्यां सुराभ्यां सचीपतेः त्रैलोक्यं यज्ञभागाश्च हृदा मद्बलाश्रया तावेव सूर्यतां तद्वद्धिकारं तथेन्दवं कोवीरमथ याम्यं च चक्राते वरुणस्य च तावेव भवनर्धिं च चक्रतुर्वह्निकर्म च ततो देवाग्निर्धूता भ्रष्टराज्याः पराजिता हृताधिकारास्त्रिदशास्ताभ्यां सर्वे निराकृताः महासुराभ्यां तां देवीं संस्मरन्त्यपराजितां तयास्माकं वरो दत्तो यथापत्सु स्मृताखिलाः भवतां नाशयिष्यामि तक्षणात् परमापदः। इति कृत्वा मतिं देवा हिमवन्तं नगेश्वरं जग्मुस्तत्र ततो देवीं विष्णुमायां प्रतुष्टुभुः। देवा ऊचुः नमो देव्यै महादेव्यै शिवाय्यै सततं नमः। नमः प्रकृते भद्रायै नियता प्रणता स्मतां रौद्रायै नमो नित्यायै गौर्यै धात्रे नमो नमः। ज्योत्स्नायै चेन्दुरूपिण्यै सुखायै सततं नमः। कल्याणे प्रणतां वृद्ध्यै सिद्ध्यै कुर्मो नमो नमः। नैऋत्ये भूभृतां लक्ष्म्यै सर्वाण्यै ते नमो नमः। दुर्गायै दुर्गपारायै सारायै सर्वकारिण्यै ख्यात्यै तथैव कृष्णायै धूम्रायै सततं नमः। अतिसौम्यातिरौद्रायै नतास्तस्यै नमो नमः। नमो जगत्प्रतिष्ठायै देव्यै कृते नमो नमः। या देवी सर्वभूतेषु विष्णुमायेति शब्दिता नमस्तस्यै नमो नमः। या देवी सर्वभूतेषु चैतन्यभिधीयते नमस्तस्यै नमो नमः। या देवी सर्वभूतेषु बुद्धिरूपेण संस्थिता नमस्तस्यै नमो नमः। या देवी सर्वभूतेषु निद्रारूपेण संस्थिता नमस्तस्यै नमो नमः। या देवी सर्वभूतेषु क्षुधारूपेण संस्थिता नमस्तस्यै नमो नमः। या देवी सर्वभूतेषु छायारूपेण संस्थिता नमस्तस्यै नमो नमः। या देवी सर्वभूतेषु शक्तिरूपेण संस्थिता नमस्तस्यै नमो नमः। या देवी सर्वभूतेषु तृष्णारूपेण संस्थिता नमस्तस्यै नमो नमः। या देवी सर्वभूतेषु शान्तिरूपेण संस्थिता नमस्तस्यै नमो नमः। या देवी सर्वभूतेषु जातिरूपेण संस्थिता नमस्तस्यै नमो नमः। या देवी सर्वभूतेषु लज्जारूपेण संस्थिता नमस्तस्यै नमो नमः। या देवी सर्वभूतेषु शान्तिरूपेण संस्थिता नमस्तस्यै नमो नमः। या देवी सर्वभूतेषु श्रद्धारूपेण संस्थिता नमस्तस्यै नमो नमः। या देवी सर्वभूतेषु कान्तिरूपेण संस्थिता नमस्तस्यै नमो नमः। या देवी सर्वभूतेषु लक्ष्मीरूपेण संस्थिता नमस्तस्यै 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 नमो नमः। या देवी सर्वभूतेषु वृत्तिरूपेण संस्थिता नमस्तस्यै 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 नमो नमः। या देवी सर्वभूतेषु स्मृतिरूपेण संस्थिता नमस्तस्यै 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 नमो नमः। या देवी सर्वभूतेषु दयारूपेण संस्थिता नमस्तस्यै 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 नमो नमः। या देवी सर्वभूतेषु तुष्टिरूपेण संस्थिता नमस्तस्यै 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 नमो नमः। या देवी सर्वभूतेषु मातृरूपेण संस्थिता नमस्तस्यै 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 नमो नमः। या देवी सर्वभूतेषु भ्रांतिरूपेण संस्थिता नमस्तस्यै 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 नमो नमः। इन्द्रियाणाम् अधिष्ठात्री भूतानां चाखिलेषु या भूतेषु सत्तम तस्यै व्याप्तिदेव्यै नमो नमः। चित्ते रूपेण या कृष्णं मे तद्व्याप्य स्थिता जगत् नमस्तस्यै 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 नमो नमः। अस्तुता सुरः पूर्वं भीष्ट संश्रया तथा सुरेन्द्रेण दीनेषु सेविता करोतु सा नः शुभहेतुरीश्वरी शुभानि भद्रान्भ्यन्तुं चापदः। या साम्प्रतं च दत्ततापितैरस्माभिरीशा च सुरैर्नमस्यते या च स्मृता तत्क्षणमेव हन्ति नः सर्वापदो भक्तिविनम्रमूर्तिभिः। ऋषिरुवाच एवम् अस्तवादियुक्तानां देवानां तत्र पार्वती स्नातुमभ्याययोतु ये जाह्नव्यान्नृपनन्दन। सब्रवित्तान्सुरान् शुभ्रूर्भवद्भिः अस्तु यतेत्रका शरीरकोशतश्चास्याः समुद्भूता ब्रवीच्छिवा अस्तोत्रं मम एतत् क्रियते शुम्भो दैत्यनिराकृत हि देवः समेत हि समृे निशुम्भे न पराजित हि शरीरकोशादतस्याः पार्वत्या निःसृताम्बिका कौशिकीति समस्तेषु ततो लोकेषु गीयते। तस्यां विनिर्गतायां तु कृष्णाभूत् सापि पार्वती कालिकेति समाख्याता हिमाचलकृताश्रया ततोऽम्बिकां परं रूपं बिभ्राणां सुमनोहरं ददर्श चण्डो मुण्डश्च भृत्यौ शुम्भनिशुम्भयोः। ताभ्यां शुम्भाय चाख्याता अतीव सुमनोहरा काप्यास्ते स्त्री महाराज भाषयन्ति हिमाचलम्। नैव तादृक् क्वचिद्रूपं दृष्टं केनचिदुत्तमं ज्ञायतां काप्यसौ देवी गृह्यतां चासुरेश्वर। स्त्रीरत्नमती चार्वङ्गी द्योतयन्ती दिशत्विषा सा तु तिष्ठति दैत्येन्द्र तां भवान् द्रष्टुमर्हति। यानि रत्नानि मणियोगजस्वादीनि वै प्रभो त्रैलोक्ये तु समस्तानि साम्प्रतं भान्ति ते गृहे। ऐरावतः समानीतो गजरत्नं पुरन्दरात् पारिजातस्तरुश्चायं तथैव उच्चैः स्रवाहयः। विमानं हंससंयुक्तं मे तत्तिष्ठति तेऽङ्गणे रत्नभूतं यहानीतं यदासि द्वेधसोद्भुतं। निधिरेख महापद्मः समानीतो धनेश्वरात् किञ्जल किनिं तदोचाब्धिर्माला ममलान पङ्कजां छत्रं ते वारुणं गेहे काञ्चनस्रावि तिष्ठति तथायं चन्दनवरो यः पुरासीत् प्रजापतेः। मृत्योरुत्क्रान्तिदा नाम शक्तिरेश त्वयाहृता पाशसलिलराज्यस्य भ्रातुस्तव परिग्रहे। निशुम्भस्याब्धिजाताश्च समस्ता रत्नजातयः वह्निरपि ददोतोभ्यमग्निशौचे च वाससि। एवं दैत्येन्द्ररत्नानि समस्तान्याहृतानि ते स्त्रीरत्नमेषा कल्याणि त्वया कस्मान्न गृह्यते। ऋषिरुवाच निशम्येते वचः शुम्भ स्वतदा चण्डमुण्डयोः प्रेखयामास सुग्रीवं दूतं देव्यामासुरम् इति चेति च वक्तव्या सा गत्वा वचनं मम यथा चाभ्येति सम्प्रीत्या तथा कार्यं त्वया लघु। स्वतत्र गत्वा यत्रास्ते शैलोद्देशेति शोभने सा देवी तां ततः प्राह लक्ष्मणं मधुरया गिरा। दूतोवाच देवी दैत्येश्वरः शुम्भस्त्रैलोक्ये परमेश्वरः दूतोऽहं प्रेखितस्तेन त्वत्सकाशमिहागतः अव्याहताज्ञः सर्वासु यः सदा देवयोनिषु।
निर्जिताखिलदैत्यारिः स यदाह शृणुख्व तत्
मम त्रैलोक्यमखिलं मम देवावशानुगाह यज्ञभागानहु सर्वानुपासनामि पृथक् पृथक् त्रैलोक्ये वररत्नानि मम वश्यान्यशेषितः तथैव वज्रत्नं च हृत्वा देवेन्द्रवाहनं क्षीरोदमथनोद्भूतमस्वरत्नं ममामृः उच्चैः श्रवससंज्ञं तत्प्रणिपत्य समर्पितं यानि चान्यानि देवेषु गन्धर्वेषु ऋगेषु च रत्नभूतानि भूतानि तानि मय्येव शोभणे स्त्रीरत्नभूतां त्वां देवी लोके मन्यामहे वयं
सा त्वमस्मानुपागच्छ यतो रत्नभुजो वयं
मां वाममानुजं वापि नुशुम्भमुरुविक्रमं भजत्वं चञ्चलापाङ्गिं रत्नभूता शिव यतः परमैश्वर्यमतुलं प्राप्स्यसे मत्परिग्रहात् एतद्बुद्ध्या समालोच्य मत्परिग्रहतां व्रज ऋषिरुवाच इत्युक्ता स तदा देवी गम्भीरान्तस्मिता जगौ दुर्गा भगवती भद्राय इदं धार्यते जगत् देवी उवाच सत्यमुक्तं त्वया नात्र मिथ्या किञ्चित् त्वयोदितं त्रैलोक्याधिपतिः शुम्भो निशुम्भश्चापि तादृशः किं त्वत्र यत् प्रतिज्ञातं मिथ्या तत् क्रियते कथं श्रूयतामल्पबुद्धित्वात् प्रतिज्ञाया कृता पुरा यो मां जयति सङ्ग्रामे यो मे दर्पं व्यपोहति यो मे प्रतिबलो लोके स मे भर्ता भविष्यति तदागच्छतु शुम्भोत्र निशुम्भो वा महासुरः मं जित्वा किञ्चिरणात्र पाणिं गृह्णातु मे लघु दूत उवाच अवलिप्तासिमेवं त्वं देवी ब्रूहि ममाग्रतः त्रैलोक्ये कः पुमान् तिष्ठेदग्रे शुम्भनुशुम्भयोः अन्येषामपि दैत्यानां सर्वे देवा नवयुधि तिष्ठन्ति सम्मुखे देवी किं पुनः स्त्री त्वमेकिका किन्द्राद्याः सकला देवास्तथुर्येषां न संयुगे शुम्भादीनां कथं तेषां स्त्री प्रयासशि सन्मुखं सात्वं गच्छ मयैवोक्ता पार्श्वं शुम्भनुशुम्भयोः केशाकर्षन् निर्धूतगर्वामागमिष्यसि देव्योवाच एवमेतद्बलिशुम्भो निशुम्भश्चातिवीर्यवान् किं करोमि प्रतिज्ञा मे यदनालोचिता पुरा सत्वं गच्छमयुक्तं ते यदेतत्सर्वमादृतः तदा चक्षासुरेन्द्राय शौच युक्तं करोतु तत्तु श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवी महात्म्ये देव्यादूतसंवादो नाम पञ्चमः ॐ तत्सत् षष्ठोऽध्यायः ध्यानम् ॐ नागाधीश्वरविस्तरां फणिफणो तंसोरुरत्नावलिभस्वदेहलतां दिवाकरणिभां नेत्रत्रयोद्भासितां मालाकुम्भकपालनीरजकरां चन्द्रार्धचूडाम्बरां सर्वज्ञैश्वरभैरवाङ्कनिलयां पद्मावतीं चिन्तये ॐ ऋषिरुवाच इत्याकर्णवचो देव्याः सदूतो मर्खपूरितः समाचष्ट समागम्य दैत्यराजाय विस्तरात् तस्य दूतस्य तद्वाक्यमाकर्ण्यासुरार्ततः सक्रोधः प्राह दैत्यानां धिपं धूम्रलोचनम् हे धूम्रलोचनासु त्वं स्वसैन्य परिवारितः
तामानय बलाद्दुष्टां केशाकर्षन् विह्वलाम्
तत्परित्राणदः कश्चिद् यदि वोत्तिष्ठे तत्परः स हन्तव्यो मरोऽपि यक्षो गन्धर्व इव वा ऋषिरुवाच तेनाज्ञप्तस्ततः शीघ्रं स दैत्यो धूम्रलोचनः वृतः षष्ठ्या सहस्राणाम् असुराणां द्रुतं ययो स दृष्ट्वा तां ततो देवीं तुहीनाचल संस्थितां जगादुच्चहे प्रयाहिते मूलं शुम्भनिशुम्भयोः
न चेत् प्रीत्याद्य भवति माद्भर्तारमुपश्यति
चतो बलान्नयाम्येख केशाकर्षन विह्वलाम् देव्योवाच दैत्यस्वरेण प्रहितो बलवान् बलसंवृतः बलान्यसीमामेवं ततः किं ते करोम्यहं ऋषिरुवाच इत्युक्तः सोऽभ्यधावत्तामसूरो धूम्रलोचनः हुंकारेणैव तं भस्म साचकाराम्बिका ततः अथ क्रुद्धं महासैन्यम् असुराणां तथाम्बिका ववर्ष सायकैस्तीक्ष्णैस्तथा शक्ति परश्वधेः ततो धूतसटः कोपात् कृत्वा नादं सुभैरवं पपातासुरसेनायां सिंहो देव्याश्ववाहनः कांक्षितकरप्रहारेण दैत्यानाशेन चापरान् आक्रम्य चाधरे नान्यान् स्वजघान महासुरान् केषाञ्चित् पाटयामास नखैः कोष्ठानि केसरी तथा दलप्रहारेण शिरांसि कृतवान् पृथक् विच्छिन्न बाहुशिरसः कृतास्तेन तथा परे पपौ चौरुधिरं कोष्ठादन्येषां धूतकेसरः क्षणेन तद्बलं सर्वं क्षयङ्नी तं महात्मना तेन केसरिणा देव्या वाहनेनातिकोपिना श्रुत्वा तं सुरं देव्या नेतं धूम्रलोचनं वलं च छयितं कृष्णं देवी केसरिणा ततः चुकोप दैत्याधिपतिः शुम्भः प्रस्फुटिताधरः आज्ञापयामास च तौ चण्डमुण्डो महासुरो हे चण्ड हे मुण्डबलैर्बहुभिः परिवारितौ तत्र गच्छत गत्वा च शासमानीयतां लघु केशे स्वाकृत्स्वबद्ध्वा यदि वः संशयो युधि तदा शेषायुधः सर्वैरसुरैर्विनिहन्यताम् तस्यां हतायां दुष्टायां सिंहे च विनिपातिते शीघ्रमागम्यतां बद्ध्वा गृहीत्वा तमथाम्बिकाम् श्रीमार्कण्डेय पुराणे सवर्णिके मन्वन्तरे देवी महात्म्ये नाम षष्ठः ॐ तत्सत्।